अस्ति कस्मिंचिन् महारादि महाकायास्त्रयो मत्स्याः प्रतिवसन्ति स्म अनागता विधाता प्रति उत्पन्नमतिर्यद्भविष्यश्चेति तत्र नागता विधात्रा तादुदकं तार्गतेन कदाचित् तत्समीपे मत्स्यबन्धानम् अतिक्रामातं वत्सनं श्रुतम् बहुमत्स्योऽयं ह्रदः अत्र मत्स्यबन्धं कुर्मः तच्च श्रुत्वानागता विधात्रा चिन्तितम् अवश्यम् एत आगन्तरः तद् अहम् प्रति उत्पन्नमतिम् यद्भविष्यम् च गृहीत्वान्यम् अच्छिन्नस्फुतस्कम् ह्रदम् संशयामीति ततास्ताबहूय हृष्टवान् गमनाय तत्र प्रति उत्पन्नमतिर्मतिनिवारितो भयच्चित्तः कथमपि प्रमादन् नानुगतः यद्भविष्यस्त्वसन्नानाशस्तद्वत्सनम् अनादृत्य निहारम्भ एवासीत् अन्ये द्युश्चापयाते नागता विधातरि मत्स्यबन्धैरन्तस्रोतो निरुध्य प्रक्षिप्तम् संवर्तज्जालम् अपकृष्टे च जारित्तस्मिन् ह्रादे नाप्येकतरो वाशिष्टः एवं गते प्रति उत्पन्नमतिर्मृतरूपम् कृत्वात्मानम् जलस्योपरि दर्शितवान् तैरपि स्वयमेव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः तस्माद् उत्कृत्यान्यम् जलाशयम् गतः यद्भविष्यस्वनेकारगुडाप्रहार जर्जरिता शरीरः पञ्चद्वम् आनीता इति